ஹலோ
அபேஷ்,
தனாசிலிங்
சார். அந்த தனாசிலிங்கம்
தெரியவர் திராஸ் பிர வேற மினம் கிள்ளி அல்கா பண்ணி நான் மாதா இத பக்கம் பிற மினம் கழிச்சாலும்
இது நான் மாதா நேரம் இருக்கும்.
ஆ ஒரு சாப்பா சாப்பா
አንዴ ስልክን ትነግረኛለች። ችግር የለም ቼክ እናደርገዋለን። ንገረኝ የቤስ ቤት ቁጥርን 09
የቤስ ቤት ቁጥር ነው
ስጫወትበትን ማለት ነው
0995 96 8296 8296
ስንት ብር ነው? ይቅርታ
ሁለቴ ነው ያደረኩት። አንዴ 80 ብር አንዴ 20 ብር።
ዲፖዚት ነው እንዴ?
ዲፖዚት
ሜሴጅ ልከል ነበር ለኛ ቴሌግራም ላይ። ቅርታ
ሜሴጅ ራሱ እንትን አላለም እንጂ የሆነ ሰክሩ ኮምፕሊት ይልና ግን ምን እንትን አላለም። ከዛ ግን ቆርጧል
የቴሌብሩ አካውንት።
አዎ
ግን ሜሴጅ አልባም ወደ ከቴሌብሩ የቆረጠበት ሜሴጅ የሚያሳይ
በዚህ በቁጥሩ ነው ያገባው። በዚህኛው ነው ያልገባው?
አይ ላንተ ላንተ። አረ
አዎ ቁጥር አልገባልኝም። ቼክ አድርጊና አንተ
ቢስተፋው
80 ብር እና 20 ብር ደግሞ ሁለተኛ።
ከዛ በኋላ 40 ብር አድርገህ ገብተልክ ነበር።
ከዛ በኋላ ደግሞ በሲብር ቼክ ለማድረግ ሳይግ በኮሚሽናል ባንክ በዛ ገባ። በዛኛው ግን እንብያለ።
ኦኬ ግን እንትን ያስፈልግ